Lesson 11, Exercise 2, pages 95 through 97. Ekada kaschit balaha amriyat. Yada tasya balasya janani tasya shariram apashyat. Tada sa aklishyat. Sa amanyat. Kutaha mama putraha amriyat. Aham mama jivane sarvada ishwaram bhaktya anamam tasya cha shaktim ashlaghe. Yesham gunaha bhaktihi cha vidyante tebhyaha ishwaraha sukham eva yachati iti aham amanye. Mama putrasya guna avartanta bhaktihi api avidyata. Yadi Ishvarasya Matihi Shaktihi Gunaha Cha Varteran Mama Putraha Kutaha Mriyeta Tataha Ishvaraha Na Vidyate Tasya Shaktihi Matihi Cha Na Vidyate Yataha Mama Putraha Amriyata Tataha Aham Api Jivane Kutaha Rameya Aham Api Jivanam Na Ichhami Tataha aham vanam gacheyam, nadyaha jale jivanam cha tyajeyam iti. Etaya matya sanari vanam agachat, nadyaha jale cha svam shariram akshipat. Tada eva tasyam nadyam, kahachit munihi snanaya agahat. Saha tasyaha nariyaha shariram jale aikshat. Tamcha jara tire anayat. Yada sa nari tire asidat. Tada sa avepat. Tam narim saha munihi abhashat. He nari. Janaha jivanam sukham manyante. Nacha tat kada apityajanti. Kutaha tvam tava jivanam nadyam atyajaha. Kutaha svam jivanam naichasi iti. Sanari dukhena abhashat. He mune, kutaha tvam mama jivanam arakshaha. Yataha mama putraha amriyat, tataha me dukham ajayat. Yataha me dukham nashamyati, tataha aham mama jivanam tyajami, nadyam cha patami. Na aham jivanam ichhami. Aham nadyam va pateyam, analaha va mam dahatu, pashavaha va mam vane grasantam. Putraha eva mama sukham avartat. Putrena vina jivanam maranam eva. Yadi aham jiveyam, dukhena eva jiveyam. Kimtu yadi aham adya atra mriyeya, Adya eva aham svargalokam gacheyam, tatra mama putram pasyeyam, tena sahaja aham sukhena jiveyam iti. Sa munihi tam narim abhashat. He nari, tvam na maranam bodhasi, na va jivanam. Ma klishyasva, ma khidyasva, etad ikshasva. Yada putraha jayate, tada janaha modante. Yada kaschit naraha mriyate, na tada janaha modante. Kimtu, yaha yaha jayate, saha saha mriyate eva. Yaha yaha mriyate, saha saha punaha jayate eva kutrachit. Maranena vina jivanam na vidyate. Jivanena vina maranam navartate. Yatha vrukshaha jayante, vardhante, nashyanticha. Tatha pashavaha api jayante, vardhante, nashyanticha. Yatha pashavaha, tatha naraha. Janaha manyante, mama putraha jayatam. Tasya api putraha jayatam. Aham. Mama putrasya putram ikshaya, तस्य भार्याम् ईक्षेय न कः अपि कदा अपि म्रियताम् न अहम् म्रियै न मे भार्या म्रियेत न वा मम पुत्रः म्रियेत अहम् सर्वदा एव जीवेयम् इति किन्तु जनाः न चिन्तयन्ति यः यः जायते सः सः म्रियते इति ततः हे नारी त्वं जीवेः मा त्वं क्लिश्येथाः इति यद्यपि सा नारी मुनेर्वचनमबोधत् तथापि सा भाषत हे मुने अहम् त्वाम् नमाम्यहमीश्वरम् नमाम्यहम् यम् कमपि नमेयम् यद्यप्यहम् बोधामि यो जायते स म्रियत एवेति तथाप्यहम् त्वामेतदर्थय एष मम पुत्रस्तव शक्त्या पुनर्जीवनम् लभतामिति स मुनिरभाषत यदि त्वम् मह्यमेकम् सर्षपम् यच्छेस्तर्हि तव पुत्रः पुनर्जीवेत् एतम् ग्रामम् गच्छ तत्र यस्मिन् गृहे न कदापि कोऽप्यम्रियत तस्मात् गृहात् एकम् सर्षपमानय यदि त्वम् सर्षपमानयेस्तर्हि तव पुत्रो जीवेत् इति सा नारी तम् ग्राममगच्छत् तत्र सा सर्वाणि गृहाण्यगच्छत् सर्वाञ्च जनानपृच्छत् जनास्तस्यायकथयन् हे नारी वयम् तुभ्यम् सर्षपानि यच्छेम किन्त्वस्माकम् गृहाणि मरणेन विना न विद्यन्ते सर्वेषु गृहेषु केचित् नराः कदाचित् अम्रियन्तैव सा नारी गृहात् गृहम् ग्रामात् ग्रामम् अभ्राम्यत् न क्वापि सा सर्षपमलभत सर्वत्र सैतद् एवाबोधत् यो जायते स म्रियत इति यदा सा नारी न कोऽपि न म्रियत इत्यबोधत् तदा सा तम् मुनिम् प्रति पुनरगच्छत् सा तमभाषत हे मुने अहम् त्वाम् नमामि त्वम् मे सत्यमदिशः यद्यपि मम पुत्रो म्रियत तथाप्यधुनाहम् न खिद्ये लोके ये बाला जननीम् विना भवन्ति तेषामहम् जननी भवेयम् तेभ्योऽहम् सुखम् यच्छेयम् तेषाम् सुखेन मम दुःखम् नश्येत् अहमपि च सुखम् लभेयेति स मुनिरवदत् य एतद् बोधति चिन्तयति च तम् दुःखम् न कदापि ग्रसते स एव दुःखम् ग्रसते सुखम् च लभत इति